एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः वर्षाणाम् सहकालस्य च देवत्वेन प्रसिद्धस्य रक्त मत्स्येन्द्रनाथस्य रथयात्रायाः अन्तर्गतम् अद्य भुटो जात्रेति नाम्ना प्रथितम् पारम्परिकम् सांस्कृतिकम् च कञ्चुक प्रदर्शन पर्व आयोज्यमानमस्ति। पुरा कर्कोट नागेन स्वनागिन्या नेत्रस्य उपचारम् कुर्वते वैद्याय प्रदत्तम् रत्नमयम् कञ्चुकम् केनचित् प्रेतेन चोरितम् ततो रक्तमत्स्येन्द्रनाथस्य रथयात्रायाम् बहवो जनाः दर्शनार्थम् आगच्छन्ति, तदानीम् तत् कञ्चुकम् अपि प्राप्येत इति मत्वा आगतेन वैद्येन चोरप्रेत निगृहीत। परन्तु कञ्चुकम् कस्यास्तीति उभयोर्मध्ये विवाद सञ्जात। ततः विवाद समाधानाय राज्ञः गुणकामदेवस्य पार्श्वे उभौ अपि प्राप्तौ। राज्ञा च उभयोर्मध्ये येन साक्षिणमानीय कञ्चुकस्य स्वामित्वम् प्रमाणीक्रियते तस्मै एव कञ्चुकम् प्रदीयते इत्युक्तम्। वैद्येन च प्रमाणम् आनेतुम् न शक्तम्। तत राज्ञा प्रतिवर्षम् रथस्य उपरि गत्वा कञ्चुकमिदम् कस्य अस्ति इति पृष्ट्वा कञ्चुक प्रदर्शनस्य परम्परा प्रारब्धेति ऐतिह्यम् वर्तते। ऐतिह्यानुसारेणैव प्रतिवर्षम् रक्तमत्स्येन्द्रनाथस्य रथयात्रा जावलाखेल स्थानम् प्रापणस्य चतुर्थ दिने कञ्चुक प्रदर्शन पर्व समायोज्यते। गत बृहस्पतिवासरे मत्स्येन्द्रनाथस्य रथस्य ललितपुर जनपदस्य लगनखेलस्थानात् जावलाखेलस्थानस्य प्राप्तेः अनन्तरम् रथयात्रा समाप्तिमेति। यात्रेयम् ललितपुर जनपदस्यैव पुलचोकस्थानात् प्रारब्धा आसीत्। जावलाखेलस्थानम् यावत् रथयात्राम् कृत्वा ततः रक्त मत्स्येन्द्रनाथम् डोलायाम् स्थापयित्वा बुङ्मतिस्थानम् यावत् प्रापणस्य परम्परा वर्तते। अतःपरम् मत्स्येन्द्रनाथस्य मूर्तिम् डोलायाम् स्थापयित्वा वाद्यवादनै स बुङ्मतिस्थानम् प्रापणानन्तरमेव अस्य वर्षस्य सम्पूर्णम् यात्रा समाप्तिम् यास्यति। रथयात्रेयम् नेपालस्यैव सर्वापेक्षया अधिककालम् मासद्वयम् यावत् सञ्चाल्यमाना यात्रा वर्तते। कर्णाली प्रदेशस्य मुख्यमन्त्री यामलाल कणेल स्वसोमवासरे प्रदेशसभायाम् विश्वासस्य मतम् गृहीता। स्वविश्वासस्य मतस्य ग्रहणस्य प्रयोजनाय मुख्यमन्त्री कणेलः प्रदेशसभा सचिवालये पत्रम् पञ्जीकारितवान् अस्ति इति प्रदेशसभा सचिवालयेन ज्ञापितम् वर्तते। मुख्यमन्त्री कणेलः संविधानस्य अष्टाशीत्युत्तरैकशततम धारायाः द्वितीयोपधारायाः अनुसारेण विश्वासस्य मतम् गृहीता। केन्द्रे सत्ता समीकरणस्य परिवर्तनेन सहैव कर्णाली प्रदेश सर्वकारे नेपाली कांग्रेस दलम् सहभागी भविष्यति। नेपाली कांग्रेस दलेन सर्वकारे सहभागितायै चतुर्णाम् मन्त्रिणाम् नामान्यपि सुनिश्चितानि वर्तन्ते। प्रधानमन्त्री केपी शर्मा ओली प्राकृतिक सौन्दर्यस्य अवलोकनाय नेपालस्य भ्रमणम् कर्तुम् विश्वस्य पर्यटकान् अनुरुणद्धि। लुक्ला विमानस्थलात् सगरमाथाधार शिविर पार्यन्तिक साहसिक यात्रायाम् आधृते वस्तुगत चित्राङ्कन प्रदर्शनी सम्बद्धे कार्यक्रमे पूर्वेद्युः प्रधानमन्त्री ओली चित्राङ्कनस्य माध्यमेन हिमालयानाम् प्राकृतिक सौन्दर्यस्य च विषयम् विश्वम् परिचाययितुम् अतिरिक्तम् सहयोगो मेलिष्यतीति विश्वासम् व्यक्तवान्। श्री गुरूङ इत्यनेन निर्देशितायाम् अस्याम् प्रदर्शन्याम् नेपालेन सहितानाम् एकादश देशानाम् ऊनविंशतेः त्रिंशतो वर्षाणाम् वयसमूहस्य युवच्छायाङ्कराणाम् सहभागिता वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह भासते राजनीतिक स्थायित्वम् संस्थाप्य देशे आर्थिक परिवर्तनाय संसदः विपुल दलद्वयेन नेपाली कांग्रेस नेकपा एमाले दलाभ्याम् मिलित्वा सर्वकारः संघटितोऽस्ति। नेपाली कांग्रेस दलस्य काष्ठमण्डप जनपदस्य प्रथम निर्वाचन क्षेत्रस्य प्रदेश कार्य समितिद्वयेन काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री सिंह राजनीतिक स्थायित्वाय सामाजिकार्थिक विकासाय च कार्यम् विधातुम् विपुल दलद्वयेन मेलनीयम् अभूत् इति समस्पष्टयत्। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई देशे सुशासनम् स्थापयितुम् समृद्धिम् अधिगन्तुम् च वर्तमानः सर्वकारः संघटितो वर्तते इति स्पष्टीकरोति। पोखरा चेम्बर अफ कमर्स संस्थाया कास्की शाखाया साधारण सभायाम तृतीयाधिवेशनम यह पोखराया उद्घाटयन मंत्री भट्टराई वर्तमान सर्वकाराय अनुशासन विपरीततया कार्यम कर्तुम अवकाशः नास्ति। विदेहे काठिन्यम आवश्यकताया अनुसारेण परिमार्ज्य अग्रे वर्धनीयम इति च अगदत। वृत्तिपार्जनानां सुनिश्चयनस्य शिक्षा वर्तमान आवश्यकतास्ति इति भाषमाणा मंत्री भट्टराई युव पलायनम रुद्धुम मिलित्वा कार्यम कर्तुम सर्वान् आह्वयत। तिलगंगा नेत्र प्रतिष्ठानस्य संस्थापकः कार्यकारी निर्देशकश्च डाक्टर सन्दुक रुइते सम्मानितो वर्तते। सभामुख देवराज घिमिरे यह काष्ठमण्डपे आयोजिते कार्यक्रमे ताप्लेजुङ सरोकार केन्द्रस्य पक्षतः डाक्टर रुइते इत्यमुं सममानयत। तदवसरे सभामुख घिमिरे डाक्टर रुइते इत्यस्य योगदानं व्यक्तित्वञ्च स्वदेशस्य अपेक्षया विदेशेषु अधिकमस्ति इति प्रावोचत। नेकपा एमाले दलस्य सचिव योगेश भट्टराई वर्तमान सर्वकारेण देशे राजनीतिक स्थायित्वाय समृद्धाय च कार्यम् विधीयमानमस्ति इति न्यश्चिनोत। डाक्टर रुइते इत्यनेन एतत्पूर्वमपि एशिया प्रशान्तस्य रामोन मेगसेसे पुरस्कारेण ईसा अवार्ड पुरस्कारेण भारत सर्वकारस्य पक्षतः पद्मश्री पदकेन च सम्मानितो वर्तते। ह्यस्तनावधिं यावत् जलविप्लव भूस्खलनादिषु निपत्य आराष्टं पञ्चाशत् उत्तरैकशतं जनाः मृताः सन्ति। विपत्सु निपत्य काष्ठमण्डपोपत्यकायां त्रयः, कोशी प्रदेशे पञ्चविंशतिः, मधेश प्रदेशे षट्, बागमती प्रदेशे उनत्रिंशत्, गण्डकी प्रदेशे द्वाचत्वारिंशत्, लुम्बिनी प्रदेशे सप्तविंशतिः, कर्णाली प्रदेशे अष्टौ, सुदूरपश्चिम प्रदेशे दश च जनाः मृताः सन्ति इति प्रहरी प्रधान कार्यालयेन ज्ञापितं वर्तते।